धार्यकल्पयन् आनाः न शृण्वन् नोतेभे मुखं किमस्यतौ
शतं जीव शरदो वर्धमानः शतं हे मन्तान् शतमुपसन्तान् शतमिन्द्राग्नि सविता बृहस्पतिं शतादिशा हविषेमं पुनः
क्षितिगुं सुजनिवाचकार त्रिर्देव पृथिवी मेष एता विचक्रमे।